एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सभामुखः देवराज घिमिरे कथयति विद्यालय शिक्षायाः सर्वकारीयाधिनियमस्य प्रहरी समायोजनस्य च विधेयकानां शीघ्रं क्रियान्वयनं विधातुं संसद तत्परा वर्तते। ह्यः ललितपुरे आयोजिते कार्यक्रमे सभामुखः घिमिरे एतानि विधेयकानि संघीय शासन प्रणाल्याः सफलतया क्रियान्वयनाय अपरिहार्याणि सन्तीति अवदत्। सभामुखः घिमिरे संघीयतायाः प्रारम्भेण सहैव त्रयाणामेव स्तराणां सर्वकाराणां कार्यक्षेत्रं संविधानेन निर्दिष्टमस्ति। राजनीतिक प्रशासनिक आर्थिकाधिकाराणाम् आवंटनानुरूपं त्रिभिरेव स्तरैः नीति निर्माण पुरस्सरं तेषां क्रियान्वयनं विधाय देशस्य सबल विकासस्य संयुक्तोद्देश्य प्राप्त्यर्थं कार्यं विधीयमानमस्तीति अवोचत्। कार्यक्रमे मुख्य सचिव एकनारायण अर्याल देशस्य सार्वजनिक प्रशासने सुशासनं संस्थापयितुं सर्वकारस्य समृद्धो नेपाल सुखिनो नेपालिनश्चेति लक्ष्यस्य प्राप्त्यर्थं सर्वैर्मिलित्वा कार्यं करणीयमित्यत्र बलं प्रादात्। प्रतिनिधि सभायाः राज्य व्यवस्था सुशासन समितेः उपवेशे संघीय सर्वकारीय सेवायाः संघटनस्य संचालनस्य सेवा शपथस्य च सम्बन्धे व्यवस्थापयितुं निर्मितस्य विधेयकस्य संशोधनकर्तृभिः सांसदैः सह विमर्शनं संचलदस्ति। समितेः स्तनोपवेशे संशोधनकर्तृभिः सांसदैः उच्चस्तरस्य कर्मचारिणां पदोन्नतौ विधीयमानायां साधारण प्रतिस्पर्धायां प्रतिशतं वर्धयितुं बलं दत्तम् वर्तते। सांसदः कार्यस्याधारेण पारदर्शिरूपेण कर्मचारिणां मूल्यांकनस्य व्यवस्था करणीया, कर्मचारिणां स्वकार्यं प्रति दायित्वबोधः, स्थानान्तरणस्य पदोन्नतिश्च विषयः, व्यवस्थितो विधेयः इत्यादिषु विषयेषु बलं दत्तवन्तः। गृहमन्त्री रमेश लेखकः गदति देशस्य विधेरनुसारेण सर्वेषु समान व्यवहार विधीयते। चितवन जनपदे ह्यः पत्रकारैः सह भाषमाणः गृहमन्त्री लेखकः सहकारी वित्त वञ्चन प्रकरणे सर्वेऽपि दोषिणः विधे परिधौ आनेष्यन्ते एवेति प्रतिबद्धतां व्यक्तवान्। सहकारी वित्त वञ्चकेषु निष्पक्षम् अनुसन्धानं भविष्यति, दोषिणः दण्डयिष्यन्ते एवेति च प्रतिबद्धताम् अभिव्यनक्। पृथक् प्रसंगे गृहमन्त्री लेखकः वर्तमान सर्वकारस्य परिवर्तनं मन्त्रिणां परिवर्तनञ्च न भविष्यतः इति समस्पष्टयत्। ऊर्जा क्षेत्रस्य विकासाय सर्वकारेण निर्धारितं लक्ष्यं पूरयितुं ऊर्जा जलस्रोत सेचन मन्त्रिणा दीपक खड्काभिधेन नेपाल विद्युत प्राधिकरणस्य पूर्व कार्यकारी निर्देशकैः सह विमृष्टमस्ति। मन्त्री खड्का ह्यः मन्त्रालये प्राधिकरणस्य नेतृत्वे स्थित्वा दीर्घकालं यावत् कार्यं विहितवद्भिः पूर्व कार्यकारी निर्देशकैः सह शुष्कयामी भारतात् विद्युतः अनिवार्यतया आयातस्य कारणस्य तस्य समाधानस्य च विषये विज्ञेभ्यः परामर्शनं गृहीतवान् अस्ति। मन्त्री खड्का विद्युतः क्षेरणस्य नियन्त्रणाय, विद्युतः प्रदेय वित्तस्य ग्रहणाय, प्राधिकरणस्य सुधाराय, सबलीकरणाय च के उपायाः अवलम्बितुं शक्यन्ते इति विषयेऽपि विज्ञेभ्यः परामर्शनं गृहीतवान्। पूर्व राष्ट्रपतिः विद्यादेवी भण्डारी पूर्वाधार निर्माणस्य सेवायाः विस्तारस्य च क्षेत्रे स्वदेशीय निवेशनं वैदेशिक निवेशनञ्च क्रमेण वर्धनीयमित्यत्र बलं ददाति। ह्यः पोखरा नगरे प्रारब्धस्य फेवा संवादस्य उद्घाटनं विदधाना पूर्व राष्ट्रपतिः भण्डारी देशस्य अर्थतन्त्रस्य वृद्धये विकास निर्माणाय च निवेशनं वर्धनीयमिति उदैरयत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ देशस्य संकट समाधानाय द्वयोः विपुल दलयोः गठबन्धनं निर्मितमस्तीति स्पष्टयति। लमजुङ जनपदस्य कोलासुथार ग्रामपालिकायाः प्रशासकीय भवनस्य ह्यः उद्घाटनं विदधानः मन्त्री गुरूङ अस्थिरस्य सर्वकारस्य अस्थिरायाः राजनीतेश्च कारणेन देशः सारहीनः जायमानोऽस्तीत्यतः ततः उन्नयनाय पृथक् पृथक् नीतेः पृष्ठभूम्याश्च नेपाली कांग्रेसदलस्य नेकपा एमाले दलस्य च संयोजनेन वर्तमान सर्वकारः निर्मितोऽस्तीति प्रावोचत्। सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ वर्तमान सर्वकारस्य प्राथमिकतायां सुशासनमस्तीति उदैरयत्। उद्योग वाणिज्यापूर्ति मन्त्रिणः दामोदर भण्डारिणः दक्षिण कोरिया देशस्य मन्त्रिणः इन क्यो च्युङ इत्यस्य च मध्ये द्विपक्षीय व्यापारस्य निवेश प्रवर्धनस्य च प्रारूप संविधायां हस्ताक्षराणि सम्भूतानि सन्ति। दक्षिण कोरिया नेपालयोः द्विपक्षीयस्य सम्बन्धस्य स्थापनायाः पञ्चाशत्तो वर्षाणां पूरणस्यावसरे ह्यः दक्षिण कोरिया देशस्य राजधान्यां सोल नगरे संविधायां हस्ताक्षराणि सम्पन्नानि सन्ति। परराष्ट्रमन्त्री डॉ आरजू राणा देववा अद्य नेपाल भारत आर्थिक सम्मेलनं सम्बोधयिष्यति। भारतस्य नवदेहली नगरे आयोक्ष्यमाणे सम्मेलने मन्त्री डॉ राणा प्रमुखातिथित्वेन सम्बोधयिष्यति इति परराष्ट्र मन्त्रिणः सचिवालयेन ज्ञापितं वर्तते। मन्त्री डॉ राणा यूरोपीय देशस्य विभिन्नेषु कार्यक्रमेषु सहभागिनी भूत्वा परह्य बुधवासरे जर्मनी देशस्य बर्लिन नगरात् नवदेहली नगरं प्राप्तवती अस्ति। मन्त्री डॉ राणा आगामिनि सोमवासरे स्वदेशं प्रत्यागमिष्यति। स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः सिंहप्रासादवर्तिनीं वैद्यखाना विकास समितिम् आयुर्वेदिक औषधानाम् उत्पादनम् वर्धयितुम् अनुरुणद्धि। वैद्यशालायाः ह्य अनुगमनं विदधानो मन्त्री पौडेलः आपणेषु सिंहप्रासाद वैद्यशालायाः औषधानि क्रेतुम् ईप्सितानि सन्त्यपि न प्राप्यमाणानि सन्तीति हेतुः प्रशोधित सामग्री प्रदातुम् असमर्थान् व्यवसायिनः कृष्णसूच्यां संस्थाप्य विकल्पस्यान्वेषणं विधातुं निर्दिष्टवान्। पेयजल मन्त्री प्रदीप यादवः काष्ठमण्डप उपत्यकायाः विभिन्न स्थलेषु मेलम्ची नद्याः जलस्य आपूर्तये नलिकानां संस्थापनस्य कार्यं शीघ्रं पूरयितुं निर्देशति। काष्ठमण्डपस्य इन्द्रचोक जनबहाल नया सड़क असन प्रभृतिषु स्थानेषु संचलत नलिका स्थापनस्य कार्यं पूर्वेद्यु निरीक्ष्य मन्त्री यादवः एवं निर्दिष्टवान् वर्तते। क्रिकेट क्रीडायाः एनपीएल इति प्रतियोगितायाः अन्तिम क्रीडायां प्रवेशाय ह्य सम्पन्नायाम् उपान्तिम क्रीडायां जनकपुर बोल्ट समूहेन कर्णाली याक समूह परि क्रीडकद्वयस्य अन्तरेण विजयम् अधिगत्य अन्तिम क्रीडायाः कृते स्थानं सुनिश्चितमस्ति। प्रथम संस्करणस्य उपाधे प्राप्त्यर्थम् अन्तिम क्रीडा श्वः भविष्यति। श्वः दिवासपाद द्वादशवादनतः कीर्तिपुरवर्तिन्यां त्रिभुवन विश्वविद्यालय क्रिकेट रंगशालायां सम्पत्स्यमानायाम् अन्तिम क्रीडायाम् उपाधि प्राप्त्यर्थं सुदूर पश्चिम रोयल जनकपुर बोल्ट चेति द्वौ समूहौ प्रतिस्पर्धां करिष्यतः। नेपाल क्रिकेट संघेन नेपाले प्रथमवारं आयोजितायाम् अस्यां नेपाल प्रीमियर लीग इति नामाख्यायां प्रतियोगितायाम् अष्टौ समूहा सहभागिनः आसन्।